एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली अमेरिका देशस्य पश्चिम क्षेत्रस्य क्यालिफोर्निया प्रान्ते शीघ्रमेव नेपाली महावाणिज्य दूतावासस्य शाखाम सञ्चालयिष्यते इति प्रतिबद्धतां व्यनक्ति। संयुक्त राष्ट्रसंघस्य 79वीं महासभायां भागं ग्रहीतुं नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विदधानः संयुक्त राज्य अमेरिका देशस्य न्यूयॉर्क नगरं प्राप्तः प्रधानमन्त्री ओली तत्र स्थितेन प्रवासी नेपाली मञ्चेन सहितै नेपाली समुदायस्य विभिन्न संगठनैः तस्मिन् क्षेत्रे महावाणिज्य दूतावासस्य शाखायाः सञ्चालनाय याचनानन्तरम् एवं प्रतिबद्धतां व्यक्तवान् वर्तते। प्रधानमन्त्री ओली क्यालिफोर्निया प्रान्ते महावाणिज्य दूतावासस्य सञ्चालनस्य याचनां प्रति सर्वकारः अनुकूलो वर्तते, एतदर्थं नेपाल सर्वकारेण शीघ्रमेव निर्णयिष्यते इति विश्वासम् अदापयत्। प्रधानमन्त्री ओली नेपालिनः यत्र कुत्रापि स्युः ते शिष्टैः मर्यादितैश्च भाव्यम् इत्यत्र बलं प्रददात् आवासीये, तर नेपाली संघेऽपि मध्ये मध्ये विवाद सर्जनस्य स्थितिः समापनीयेति उदैरयत्। प्रधानमन्त्री ओली नेपाले जनिम प्राप्ताः सदैव नेपालिनो भवन्तीति मान्यतामाधृत्य कार्यं कर्तुम् अनुरुन्धानः, राजनीतिकाधिकाराणां प्रयोगाय इच्छायां सत्यां प्रवासस्य नागरिकतां निष्क्रियं विधाय कर्तुं शक्यते इति प्रावोचत्। प्रधानमन्त्री ओली संविधानस्य संशोधनं दलेषु परस्परं विमृश्य सहमतेराधारेण कर्तव्यं भवतीत्यतः तत्कालं संशोधनं न भविष्यति इति समस्पष्टयत्। तदवसरे नेपाले क्यानडादेशस्य दूतावासं सञ्चालयितुं प्रयासाय क्यानडावर्तिभिः नेपालीभिश्च प्रधानमन्त्री ओली अनुरुद्धः आसीत्। राष्ट्रपतिः रामचन्द्र पौडेलः भाषते नेपाली भाषायाः साहित्यस्य च विकासाय राष्ट्रकवेः माधव प्रसाद घिमिरे विदस्य योगदानम् अतुलनीयं वर्तते। राष्ट्रकवेः माधव प्रसाद घिमिरे विदस्य 75वीं जन्मजयन्त्याः अवसरे मर्स्याङ्दी वाङ्मय प्रतिष्ठानेन ह्य शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजितं पुरस्कार वितरण समारोहं सम्बोधयन् राष्ट्रपतिः पौडेलः कला भाषा साहित्यं संस्कृतिश्च सभ्यस्य सुसंस्कृतस्य च समाजस्य परिचायकः भवन्तीति प्रावोचत्। तदवसरे राष्ट्रपतिः पौडेलः अस्य वर्षस्य राष्ट्रकवि माधव प्रसाद घिमिरे पुरस्कारः वरिष्ठाय गीतकाराय किरण खरेलाय प्रदत्तवान्। पुरस्कारे 1,00,000 रूप्यकाणि प्रमाणपत्रं च वर्तन्ते। ह्य एव नेपाल प्रज्ञा प्रतिष्ठानस्य 67वीं वार्षिकोत्सवस्य अवसरे प्रतिष्ठानेन आयोजितम् एतद् विक्रमवर्षीयं पुरस्कार वितरण समारोहं सम्बोधयन् राष्ट्रपतिः पौडेलः भाषिक सांस्कृतिक भौगोलिक विविधतायुतस्य नेपालस्य गौरवः परिचयश्च अस्माकं भाषा साहित्यं संस्कृतिश्च वर्तन्ते इति धारणाम् अभिव्यनक्। राष्ट्रपतिः पौडेलः भाषा साहित्यं संस्कृतिः दर्शनञ्च मानवजीवनस्य कृते अपरिहार्य विषयाः सन्तीति अभाषत। राष्ट्रपतिः पौडेलः मनुष्याणां ज्ञाने अनुभूतौ विचाराणां संरक्षणे सम्प्रेषणे च साहित्यस्य महत्वपूर्णा भूमिका भवतीति अवोचत्। तदवसरे राष्ट्रपतिः पौडेलः विजयिभ्यः कविभ्यः पुरस्कारान् प्रायच्छत्। सभामुखः देवराज घिमिरे निगदति संविधान संशोधनस्य विषये राजनीतिक दलेषु विमर्शनस्य प्रयासः प्रारब्धो वर्तते। विराटनगर विमानस्थले पूर्वे द्युः संचारकर्मिभिस्सह सभामुखः घिमिरे संशोधनं कथं क्रियते, का च प्रक्रिया, कस्मिन् विषये कदा संशोधनं विधीयते इति विषयेष् राजनीतिक दलेष् बृहत्तर सहमतेः आवश्यकता अस्ति इति अभाषत। सभामुखः घिमिरे सर्वकारीय सेवाधिनियमस्य, प्रहरी संघटन संचालन सम्बद्धादिनियमस्य, शिक्षा सम्बद्धादिनियमस्य च निर्माण कार्ये सम्पन्ने सति संविधान क्रियान्वयनस्य क्रमे दृष्टानां समस्यानां समाधानं सम्भविष्यति इति धारणाम् अभिव्यनक्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः नेपाली कांग्रेस नेकपा एमाले दलाभ्यां संविधान संशोधनस्य विषयः कर्तव्य विषयस्य अपेक्षयापि सर्वकार परिवर्तनस्य ब्याजस्य रूपेण उत्थापितोऽस्तीत्यतः तदर्थम् एते दले गभीरे न स्तः इति आरोपयति। संविधान निरीक्षण समूहेन इन्स्टिच्यूट फर स्ट्राटेजिक एण्ड सोसियो इकोनोमिक्स रिसर्च नामाख्या संस्थया सह संयुक्त रूपेण ह्य काष्ठमण्डपे आयोजितायां संविधानस्य क्रियान्वयनम् अपेक्षया वास्तविकता चेति विषयिण्याम् अन्तर्क्रियायाम् अध्यक्षः प्रचण्डः जनतायाः अधिकाराणां सम्बोधनत्वेन संविधानं संशोधनीयमिति विचारं व्यक्तवान्। विशेष न्यायालयेन मेलम्ची पेयजलायोजनायां विहितस्य भ्रष्टाचारस्य प्रकरणे दोषी निर्धारितेभ्य त्रिभ्य निर्माण संस्थाभ्य चतुर्भ्य जनेभ्यश्च दण्डनम् निर्धारितम् अवर्तते। विशेष न्यायालयस्य अध्यक्षस्य टेकनारायण कुंवर इत्यस्य सदस्यद्वयस्य तेजनारायण सिंह राई इत्यस्य मुरारीबाबु श्रेष्ठस्य च न्यायपीठेन दोषी निर्धारितेभ्य त्रिभ्य निर्माण संस्थानेभ्य चतुर्भ्य जनेभ्यश्च दण्डनम् निर्धारितमस्ति। न्यायालयेन दोषी निर्धारिताय पूर्व सचिवाय मेलम्ची पेयजलायोजना समितेः तात्कालिका अध्यक्षाय गजेन्द्र ठाकुर इत्यस्मै समितेः कार्यकारी निर्देशकाय सूर्यराज कडेल इत्यस्मै च प्रतिजनम् अष्टानां वर्षाणाम् एकमासस्य च कारावासनम् दशकोटयः दशलक्षाणि पञ्चसप्तत्यधिकैकषष्टिः सहस्राणि रूप्यकाणि च दण्डनत्वेन निर्धारितानि सन्ति। न्यायालयेन तात्कालिक पेयजल विकास समितेः कार्यकारी निर्देशकाय लेखाधिकारिणे च रामचन्द्र देवकोटा इत्यस्मै अष्टानां वर्षाणाम् एकमासस्य च कारावासनम् कोटिद्वयं पञ्चनवतिः लक्षाणि पञ्चषष्टिः सहस्राणि त्र्यधिक षट्शतं च रूप्यकाणि च दण्डत्वेन निर्धारितानि वर्तन्ते। न्यायालयेन परामर्शदात्रे इप्स टिसा जेवी संस्थानस्य समूह नेत्रे शिवकुमार शर्मणे अष्टानां वर्षाणां कारावासनम् कोटिद्वयं पञ्चनवतिः लक्षाणि पञ्चषष्टि सहस्राणि त्र्यधिक षट्शतं च रूप्यकाणि दण्डत्वेन निर्धारितानि वर्तन्ते। न्यायालयेन दोषी निर्धारितेषु निर्माण संस्थासु एपीआईआई एसए नामकाय संस्थानाय षड्भ्य कोटिभ्य अपि अधिकानि रूप्यकाणि बीईटीएस संस्थानाय आसन्न कोटित्रयम् रूप्यकाणि सीएमडीसी रावेना संस्थानाय षड्विंशतिः कोटिभ्योऽपि अधिकानि रूप्यकाणि दण्डनत्वेन निर्धारितानि वर्तन्ते। नेकपा एकीकृत समाजवादी दलेन दल संघटनस्य संरचनायाः नेतृणां दायित्वस्य च परिवर्तनं विधीयते। दले विभागायोग प्रभृतिभ्य संरचनाभ्य पूर्णता प्रदानाय जनवर्गीय संघटनानां इन्चार्ज पदीयानां भौगोलिक इन्चार्ज पदीयानां च दायित्वस्य परिवर्तनाय च पूर्व कार्यं विधीयमानम् अवर्तते। तत्कालमेव सम्पन्नेन दलस्य दशम राष्ट्रिय महाधिवेशनेन सर्वाः अपि समितयः विघटिताः आसन्। शुक्रराज संक्रामक रोग चिकित्सालये संक्रामक रोगाणां रोगिणः वर्धमाना सन्ति। चिकित्सालये डेंगू स्कब टाइफस रेबीज नामाख्यैः संक्रमणैः संक्रान्तानां रोगिणां संख्या वर्धिता अस्ति। इति समाचारः।